एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तोत्री रत्नावली शर्मा। नेकपा एमाले दलस्य नेपाली कम्युनिष्ट दलस्य च मध्ये प्रदेश सभायां सहकार्यस्य सहमतिः सम्भूता अस्ति। द्वयोः दलयोर्मध्ये प्रदेश सभायां सहकार्यस्य संयुक्त सर्वकार संघटनस्य च विषये सहमतिः सम्भूता अस्ति। संयुक्त सर्वकारेषु कोशी बागमती लुम्बिनी प्रदेश सभानां नेतृत्वं नेकपा एमाले दलेन, कर्णाली प्रदेशस्य सुदूरपश्चिम प्रदेशस्य नेतृत्वं च नेपाली कम्युनिष्ट दलेन विधास्यते। मधेस प्रदेशे गण्डकी प्रदेशे च सर्वकार संघटनस्य विषये प्रदेश सभायां प्रतिनिधित्वं कुर्वद्भि अन्यै राजनीतिक दलैः परामर्शं विधाय सर्वकारस्य नेतृत्वस्य सहभागितायाश्च स्वरूपं निर्धारयितुं सहमतिः सम्भूता अस्तीति नेकपा दलस्य संयोजकस्य पुष्पकमल दाहाल प्रचण्डस्य स्वकीय सचिव गोविन्द आचार्य ज्ञापयत्। सहमतिपत्रे नेकपा एमाले दलस्य अध्यक्षेण केपी शर्मा ओलिना, नेकपा दलस्य संयोजकेन प्रचण्डेन च हस्ताक्षराणि विहितानि सन्ति। कर्णाली प्रदेशस्य मुख्यमन्त्रिणा यामलाल कणेलेन त्यागपत्रं प्रदत्तमस्ति। ह्य उपविष्टं प्रदेशसभायाः उपवेशं सम्बोधयन् मुख्यमन्त्रिणा सम्बोधयता मुख्यमन्त्रिणा कणेलेन त्यागपत्रस्य घोषणा विहिता अस्ति। गताषाढमासस्य द्वात्रिंशे दिवसे नेपाली कांग्रेस नेकपा दलयोः षोडश सांसदैः मुख्यमन्त्रिणः कणेलस्य विरूद्धे अविश्वासस्य प्रस्तावः प्रदेशसभायां पञ्जीकारितः आसीत्। ह्यः दिवा मुख्यमन्त्रिणा प्रदेशसभायां अविश्वासस्य प्रस्तावमाधृत्य विमृष्टुम् उपवेशः आहूतः आसीत्। मुख्यमन्त्री कणेलः प्रथमवारम् अशीत्युत्तर द्विसहस्रतम वैक्रमाब्दस्य चैत्रमासस्य सप्तविंशे दिवसे नेकपा एमाले नेकपा माओवादी केन्द्रयोः च गठबन्धने मुख्यमन्त्री प्रचितः आसीत्। तदनन्तरं केन्द्रे समीकरणस्य परिवर्तनानन्तरं नेपाली कांग्रेस दलस्य समर्थने एकाशीत्युत्तर द्विसहस्रतम विक्रमवर्षस्य श्रावणमासस्य एकविंशे दिवसे कणेलः मुख्यमन्त्रीपदे नियुक्तः आसीत्। रोल्पा जनपदस्य सुनछारी ग्रामपालिकायाः प्रथमौडा क्षेत्रस्य सेरमवर्तिनी दवांग शिखरे ह्य दुरापन्नी भूस्खलने निपत्य गासारयितुं गते द्वे महिले मृतेस्तः। घटनायां पशवः पूरिताः सन्ति इति अनुमितम् वर्तते। एवमेव मुगु जनपदस्य मुगुम कार्मारुङ ग्रामपालिकायाः पञ्चमौडा क्षेत्रस्य पुलुआपणे भूस्खलने निपत्य बाल मृतोऽस्ति। भूस्खलने पूरितस्य बालस्य उपचारस्य क्रमे पुलु स्वास्थ्य चिकित्सालय मृत्यु र जायत इति मुगु जनपद प्रहरी कार्यालयेन ज्ञापितम् वर्तते। घटनायां द्वौ जनौ आहतौ स्तः। पञ्चसूत्रात्मिकीं याचनां विधाय विगतेषु त्रिषु दिनेषु कैलाली जनपदस्य धनगढ़ीवर्तिनः कृष्णमन्दिरस्य धर्मशालायाम् अनशनरतः गोविन्द केसी चिकित्सालये उपचारार्थं प्रापितोऽस्ति। केसी इत्यस्य स्वास्थ्यावस्था जटिलतरा जायमाना अस्ति इत्यतः ह्यः दिवा धनगढ़ी उपमहानगरपालिकायाः कृष्णमन्दिर परिसरात् सेती प्रादेशिक चिकित्सालयस्य सघन उपचारकक्षे प्रापितो वर्तते। निरन्तरस्य अनशनस्य कारणेन रक्ते शर्करायाः न्यूनत्वात् स्वास्थ्य समस्यायां जायमानायां प्रशासनेन सह समन्वयं विधाय केसी चिकित्सालये प्रापितोऽस्ति। अत्रान्तरे स्वास्थ्य खाद्य स्वच्छता मन्त्रिणा निशा मेहता इत्यनया डाक्टर केसी इत्यस्य उपचारस्य व्यवस्थापन विषये दूरभाषं विधाय चिन्ता व्यक्ता अस्ति। मन्त्रिणा मेहता इत्यनया चिकित्सालयस्य प्रमुखेण हिमराज पाण्डे इत्यनेन सह दूरभाषं विधाय केसी इत्यस्य उपचारस्य प्रभावपूर्णाय व्यवस्थापनाय आवश्यक समन्वयाय च निर्देशनं दत्तमस्ति। अत्रान्तरे अनशनरतस्य डाक्टर गोविन्द केसी इत्यस्य सर्वकारीय वार्ता समूहस्य सदस्यस्य शिक्षा सचिवस्य चूडामणि पौडेलस्य च मध्ये ह्य मेलवार्ता सम्भूता अस्ति। केसी इत्यस्य सहयोगिनः अनुसारेण चिकित्सालये उपचाररतेन केसी इत्यनेन सह मेलनाय शिक्षा सचिवः पौडेलः तत्र प्राप्तवान् आसीत्। सर्वकारीय वार्ता समूहस्य डाक्टर केसी इत्यस्य च मध्ये अद्य औपचारिकी वार्ता भविष्यति। सभामुखः डोलप्रसाद अर्यालः निगदति एकाशीत्युत्तर द्विसहस्रतम विक्रमवर्षेण अभौतिक सांस्कृतिक सम्पद संरक्षणं विधेयकेन नेपालस्य अभौतिक सांस्कृतिक सम्पदाम संरक्षणाय सम्वर्धनाय विकासाय स विधियुक्त आधार प्रदास्यते। छिन्नलता गीत पुरस्कार गुठी संस्थया ह्य आयोजिते चत्वारिंशत्तमे छिन्नलता गीत पुरस्कार समर्पण समारोहे सभामुख अर्याल विधेयकस्य माध्यमेन विभिन्नानां जातीनां भाषाणां धर्मस्य संस्कृतेः समुदायानां च मौलिक परम्पराणां ज्ञानस्य शिल्पस्य कलायाः सांस्कृतिकस्य अभिव्यक्तेः संरक्षणम् अभिलेखीकरणम् प्रवर्धनम् च भविष्यति इति विश्वासम् अभिव्यनक्। संसद अन्तर्राष्ट्रिय सम्बन्ध पर्यटन समितौ विमर्शनस्य क्रमे विद्यमाने विधेयके सांस्कृतिक सम्पद व्यावसायिके प्रयोगे सम्बद्धानां समुदायानां हित संरक्षणस्य उल्लंघने दण्डनस्य व्यवस्था विहिता अस्ति इति प्रावोचत्। तदवसरे सभामुख अर्याल गत विक्रम वर्षेण छिन्नलता गीत विशेष सम्मानेन वरिष्ठ गायक दीप श्रेष्ठ सम्मानित। कार्यक्रमे गीतकार डाक्टर नवराज लम्साल, संगीतकार किरण कणेल, गायिका विमला राई, सारिका घिमिरे छ पुरस्कारेण सम्मानिता अभूवन्। कृषि वन वातावरण मन्त्री गीता चौधरी निगदति रासायनिक मलस्य आपूर्ति सहजा जायमा नास्ति। ह्य धनुषा जनपदे कृषि आधुनिकीकरण आयोजनाया निरीक्षणस्य क्रमे मन्त्री चौधरी अस्मिन् वर्षे अन्तर्राष्ट्रियाया परिस्थितेः कारणेन रासायनिक मलस्य आपूर्तौ प्रभाव सर्जनेऽपि सम्प्रति विभिन्नै प्रवेश मार्गै रासायनिक मलम् आनीयमानम् अस्ति इति अगदत्। वैदेशिक वृत्त्युपार्जने आकर्षकस्य वृत्तेः प्रलोभनं प्रदाय न्यूजीलैण्ड देशं पोर्चुगल देशं च प्रेष्यते इत्युक्त्वा वञ्चनस्य अभियोगे द्वौ जनौ प्रहरिणा निगृहीतौ स्तः। काष्ठमण्डपस्य तारकेश्वर नगरपालिकायाः दशमौडा क्षेत्रस्य एकपञ्चाशत् वर्षीय राजकुमार भण्डारी, एकोनत्रिंशत् वर्षीय सुरेश घिमिरे च प्रहरिणा निगृहीतौ स्तः। पीडितानां जनानां याचनायाः अनुसारेण उपत्यका अपराधानुसन्धान कार्यालयात् गतेन प्रहरिणा राजकुमारः सुरेशश्च निगृहीतौ स्तः इति प्रहरिणा ज्ञापितमस्ति। भारतस्य केन्द्रीय शिक्षा मन्त्रिणा धर्मेन्द्र प्रधान इत्यनेन पदात्यागपत्रं दत्तमस्ति। एतत् ख्रीष्टवर्षस्य NETUC इति परीक्षायाः प्रश्नानां प्रच्युतेः विवादानन्तरं ह्यः पदात्यागपत्रं दत्तमस्ति। प्रधानेन छात्राणां हितं केन्द्रे संस्थाप्य यूनः भ्रमात् संरक्षितुम् आत्मनः मन्त्रिपदात्यागपत्रं दत्तमस्ति इति उल्लिखितं वर्तते। त्यागपत्रे प्रधानः शिक्षाक्षेत्रेण सह चत्वारिंशत् वर्षै स्वकीयां शिक्षा सम्बद्धतां प्रदर्श्य सशक्ता समावेशिनी दूरदर्शिनी च शिक्षा प्रणाली राष्ट्रनिर्माणस्य आधारोऽस्ति इति प्रावोचत्। अत्रान्तरे शिक्षा मन्त्रिणः त्यागपत्रस्य अनन्तरं कक्रोच जनतादलेन आन्दोलनं प्रत्यावर्तितमस्ति।